नमस्ते। आरम्भं कुर्मः। वाक्यकारं उररुचिं भाष्यकारं रञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अद्य श्रूयते वा सम्यक्? अस्तु, अस्तु आरम्भं कुर्मः। एवञ्च अच्छन्दीनां विषये पठन्तः आस्म। अत्र गुणसन्धिः, वृत्तिसन्धिः, यण्सन्धिः, सवर्णदीर्घसन्धिः एतेषां विषये पूर्वम् उक्तम्। ऐ मेन्शन्ड् इन् दि प्रीवियस् क्लासस् एण्ड् दीस् एक्सेप्शन्स् तदपि पूर्वम् उक्तम् आसीत्। यकारादिप्रत्यये परे अपि ओकारस्य औकारस्य च क्रमशः औ आव् एतौ आदेशो भवतः। दिस् आल्सो मेन्शन्ड् इन् द प्रीवियस् क्लास्। गो प्लस् य इट् बिकम्स् गव्य सिन्स् इट् इस् यकारादिप्रत्यय ओकारस्य स्थाने अव् इति आदेशः भवति, गव्यम्। एवं नौ प्लस् य नाव्यम्। अन्यत् वन् मोर् थिङ्ग् रिलेटेड् टु अन्तदेश अन्तदेश वास् पदान्ते ऐ आय् अव् आव् एते यदि वर्तन्ते तर्हि विकल्पेन यकार वकारयोः लोपः भवति। तस्यापि उदाहरणं दर्शितं। कस्मै इदं हियर् कस्मै इदं पदमस्ति पद एण्ड् ऐकार इन् पदान्त अतः ऐकारस्य स्थाने आय् इति आदेशः कस्मा इदं देन् सिन्स् इट् इस् यकार इन् पदान्त यकारस्य विकल्पेन लोपः भवति अतः कस्मा इदं लोप अभावे लोपपक्षे कस्मा इदम् इति रूपद्वयम्। एवमेव ये आहुः ययु यान्तादेशः ततः परं यकारः पदान्ते अस्ति अतः ययाहुः आर् य आहुः तौ आह्वय तावाह्वय वकारः पदान्ते अस्ति अतः विकल्पेन लोपः। इदं सर्वं पूर्वस्मिन् पाठे उक्तं। पदान्ते एकारः अथवा ओकारः प्लस् ह्रस्वाकारश्चेत् पूर्वरूपसन्धिः इत्युक्तं। हरे अव हरेव ते अत्र गुरोस्तु इदं सर्वं पूर्वरूपसन्धिः। इस् काल्ड् पूर्वरूप। द प्रीवियस् फार्म् रिप्लेसस् बोत् लेटर्स् फोर् पूर्वरूप सन्धि। अस्तु, एते विषयाः अस्तु, एते विषयाः पूर्वमुक्ताः। कानिचन उदाहरणानि पश्यामः सन्धीनाम्। अहम् अत्र उदाहरणं दर्शयामि, उत्तरं भवन्तः वदन्तु, ततः परम् उत्तरं दर्शयामि। प्रथमं गुणसन्धिः। गुणसन्धिः अत्र ए ओ अर् अल् अकारात् इकारे परे ए, अकारात् उकारे परे ओ, अकारदृकारे परे अर्, अकारदृकारे परे अल्। सो दिस् इस् काल्ड् गुणसन्धि। सो ऐ एम् शोयिङ्ग् सम् एक्साम्पल्स् आफ् गुणसन्धि, सो यु केन् आन्सर् दीस् क्वश्चन्स्। सो महा प्लस् ईशः किं रूपं भवति? सो यु केन् टैप्, यु केन् टैप् जस्ट् द लेटर्, नो नीड् टु रैट् होल् वर्ड्। प्लीस् टैप् ओन्ली द लेटर् विच् रिप्लेसस् दिस् टु। सो ओके, Can everyone see this presentation? Slides? Slides? Okay. Yeah. So, Maha plus Ishaha, atra akara a iti vartate. So, akarat param ikaraha. Therefore, these two will be replaced with a. Ataha, Maha plus Ishaha, Maheshaha. Samek. Tatra plus iti. Kim bhavati? Yes. Atrapi samanam. So purva deva, like previous example. Yeah. Yes. So Padmanabhanji, yes. Kalyan Krishnanji, samek. Yeah. So Shrivar Kulkarniji, yes. So tatra plus iti akara param ikara hasti. So ekara replaces these two letters. Ataha tatrepi. Maha plus utsavaha. Kim bhavati? Yes. Samek. Yes. Shrivaram Kulkarni ji, yes. Player Kastan ji, yeah. Indira ji, samek. Yes. Indira Shastri ji, samek. So, Maha plus Utsavaha, atra akara hasti, a plus u. So, o. Taha, Mahotsavaha. Sulabha plus Upaya. Kim bhavati? Yes, Indiraji, yes. Yes, samek. Yeah, Ravishankarji, samek. So, sulabho payaha, akarat param ukarahasti, ataha, okaraha. So, yo hostare. Hita plus upadesaha. Yeah, so same. Yes, Indiraji, yes, Indira Shastriji, yes. Yeah, Govinda Rajanji, yes. So, hita plus upadeshaha, hita upadeshaha, puravata. Sapta plus rishayaha. Yes, Indra Krishnamurti ji. Yes, Indra Shastri ji. No. Yes. So, atara akaraha, akarat param, prakaraha asti. Ataha, ar iti adeshaha. Dvayoho sthane ar. Ar replaces these two letters. Ataha, sapta plus rishayaha, saptarshayaha. Brahma plus rishihi. Brahma plus rishihi. Yes. Indra Shastriji, yes. Janardhanji, yes. Yeah, Ravishankarji, yes. Yes. So, atrapi puravadeva, Brahma plus Rishihi, Brahmarshihi, ar replaces both the letters. Again, na ichati. Yes, Shivaramji, yes. Yeah, Kalyan Krishnanji, yes. Yes, Ravishankarji, yeah. So, na plus ichati, ne ichati, a plus e, a. Pita iva. Yes, Kalyan Krishnanji, yes, Indiraji, yes. So, pita plus iva, piteva, puravadeva. Mama lukaraha. Kim bhavati? Mama plus lakaraha. Yes, Ravishankarji, samek. Yeah, Indiraji, samek. Kalyan Krishnanji, samek. So, at तत्र अकारात् परं लकारः अस्ति अल् रिप्लेसेस् दीस् टू लेटर्स् अतः इट् इस् ममल्कारः अल् अल् रिप्लेसेस् बोत् लेटर्स् द्वयोः स्थाने अल् अतः ममल्कारः सम्यक् एवं तत्र गुणसन्धिः प्रायः स्पष्टम् इति भावयामि. सवर्णदीर्घसन्धिः तस्य कानिचन उदाहरणानि. सवर्णदीर्घः नाम अकारात् अकारे परे अ, इकारात् इकारे परे इ, उकारात् उकारे परे उ, ऋकारात् ऋकारे परे ऋ, लकारात् ऋकारे परे अपि ऋ, ऋकारात् लकारे परे अपि ऋ, लकारात् लकारे परे अपि ऋ. इदं सर्वं सवर्णदीर्घ. सो दीर्घ रिप्लेसेस् सिमिलर् लेटर्. कानिचन उदाहरणानि पश्यामः. कवि प्लस् ईश्वरः. यस् राम यस् रामप्रियाजी यस् गोविन्दराजन्जी यस् रविशङ्कर्जी या इन्दिराजी सम्यक्. सो कवि प्लस् ईश्वरः इकारात् परम् इकारः अस्ति अतः ईकारः आदेशः इ प्लस् इ इ अतः कवीश्वरः. अपि प्लस् इदम् अपि प्लस् इदम् यस् कल्याणनाथ कृष्णजी यस् पर्वतनाथन्जी रामप्रियजी यस् सो अपि प्लस् इदम् अपि इदम्. कटु प्लस् उक्तिः. स्लैड् ओके पर्वतनाथन्जी सेयिङ्ग् स्लैड् नाट् सीन् इस् इट् सो ऐ थिङ्क् अदर्स् केन् सी द स्लैड् स्लैड् सीन् ओके so I don't know because I shared the slides so some of you can see and some of you can't see the slide it seems you should log out. Indira ji suggests that you have to log out and log in then those who can't see the slide if they log out and log in they can see the slide. Okay. So those who have a problem, you can please log out and log in. I think you can see the slides. So now katu plus uktihi. Yeah, katu uktihi. Yeah, Paresh ji. Yes, samyak. So katu uktihi. So bhratru plus ranam. Kim bhavati? यस् सो दीर्घ ऋकारः सम्यक् बहवः उक्तवन्तः. सो ऋकारयोः स्थाने दीर्घ ऋकारः ऋ प्लस् ऋ ऋ अतः भ्रातॄणम्. गुरु प्लस् उपदेशः. Yes. Yeah. So Indira ji, Ravishankar ji, Kalyana Krishnan ji, yes. Yeah. So guru plus upadeshah, guru upadeshah. Su uktam. Yes, Indira Shastri ji, yes. Yeah, Hari Krishna ji, yes. Kalyana Krishnan ji, yes. So Anubhav ji, yeah. Su plus uktam, su uktam. सम्यक् then tatha plus api yes Ravi Shankar ji yeah Kalyan Krishnan ji yes so tatha plus api tatha api phalani plus iva yes Indira Krishnamurti ji yes Indira Shastri ji yeah yes Shivaram ji yes Samyak yeah Savita ji yeah so phalani plus iva phalani va Samyak so idam sarvam savarna dirgha sandhehe udaharanani tasparam vriddhi sandhihi vriddhi sandhihi akarat ekare okare aikare aukare cha pare क्रमशः ऐ औ ऐ औ एते वर्णाः आदिश्यन्ते अकारात् एकारे ऐ अकारात् औकारे परे औ अकारात् ऐकारे परे ऐ पुनः अकारात् औकारे परे औ एव कानिचन उदाहरणानि पश्यामः मम प्लस् एव यस् शिवराम जी यस रविशंकर जी यम इंदिरा जी तो मम प्लस एव अत्र अकारात् परम एकारः अस्ति अतः ऐ अतः ममैव मम प्लस ओजः यस इंदिरा कृष्णमूर्ति जी यस या शिवराम जी रविशंकर जी सम्यक् यस अनुभव जी सम्यक् सविता जी या कल्याणकृष्णन् जी सो मम प्लस ओजः अतः अकारात् परम् ओकारः अस्ति अतः औ इति आदेशः मम ओजः एण्ड् वन प्लस ओकसः yes Shivaram ji samyak yeah Kalyan Krishnan ji yes so vana plus o again au atah vanaukasah rakta oshadhi yes Indira Krishnamurti ji yes Ravi Shankar ji yeah Kalyan Krishnan ji samyak सो रक्ता प्लस औषधि अत्र ओकारः एव अस्ति अतः औ रक्तौषधि यस् सविता जी सम्यक् तदा प्लस एकम् यस् इंदिरा जी यम् शिवराम जी सम्यक् कल्याणकृष्णन् जी सम्यक् या पर्वतनाथन् जी यस् गोविंदराजन् जी सो तदा प्लस एकम् तदैकम् छात्रस्य औत्सुक्यम् औ छात्रस्य औत्सुक्यम् स्यौ यस् रविशङ्करजी सम्यक् या इन्दिराजी सम्यक् शिवरामजी सम्यक् yes so atra akarat param aukarah asti atah yeah anubhav ji samyak so chhatrasyau utsukyam cha plus eva sulabham yes indira ji yeah shivaram ji samyak yes Ravi Shankar ji yeah hari krishna ji yes yeah so chaiva yes atra ya vibhakti lopah na bhavati so chhatrasya autsukyam so vibhakti lopah nastiva this question So because it is not samasa, vibhakti lopa doesn't happen. Samasa state vibhakti hi nadrishyate. Atra kevalam sandhi asti. Kevalam sandhi state vibhaktehe lopah na bhavati. Yadi samasa api asti sandhi, both are there. If samasa and sandhi, if both are there, then vibhakti lopa is possible. If only sandhi, if we are doing only sandhi, then vibhakti remains. So therefore chatrasya autsukyam vibhakti remains. Chatrasya tateva asti. Lopah na bhavati. So yatha plus aushatham. Yes, Indiraji, Namek. Yes, Kalyan Krishnanji, yes. Yes, Savitaji. So yatha plus aushatham, yathaushatham. Yes. Na ekam. Yes, Indiraji, Samyak. Yes, Shivaramji, yeah. Yeah, Ravi Shankarji, yes, yeah. Pramilaji, yeah. Yes, Govindarajanji, yeah. So, na plus ekam, naikam akarat ekaraha ataha ai. Antimam, doshaya etat. Yes, Indiraji, Samyak. Yeah, Shivaramji, yes. Yeah, Kalyan Krishnanji, Savitaji, yeah. So, A plus A, yeah, Pramilaji, Samyak. So, A plus A, I, ataha, dosha, yaitat. So, idam sarvam, vritti santhehe, udaharanam, rasparam, yan santhihi. Yan sandhihi akara atra vartate yuvurulu ete adeshaha cet yan sandhihi iti kathyate vancha iurulu etasmat yada asavarna varnaha bhavanti asavarna nama akara sakrate akara savarnaha ikara sakrate ikaraha savarnaha similar letter it is savarna ukara sakrate ukaraha savarnaha if asavarna asavarnaha asti tada kim bhavati yan yan nama ya va ra la these four letters are called yan so yasmin sandhau tatra yan varnaah adishyante ya va ra la ete varnaah iti adishyante tarhi tasya yan sandhihi iti nama bahushu varneshu pareshu yan sandhihi when these letters follow then yan sandhi is possible so let us see some examples अत्र विश्वामित्र इत्यत्र सो देयर्स अ क्वेश्चन विश्वामित्रः किं विश्वस्य परे अमित्र इति प्रश्नः सो हाउ टू स्प्लिट दिस विश्वामित्र विश्व प्लस इज इट विश्व प्लस अमित्र दिस इज अ क्वेश्चन बट देयर इज अ रूल पाणिनीयन रूल इज देयर सो इट इज नॉट अ सवर्ण दीर्घ बट इट इज जस्ट दीर्घ ऑफ प्रीवियस वर्ड विश्व इत्यस्य एव दीर्घः भवति इट बिकम्स विश्वा the word vishwa plus mitra actually but since there is a rule this vishwa hrasvasya sthane dirgha therefore it becomes vishwa mitra so it's not vishwa plus amitra but vishwa plus mitra only but since it gets dirgha it looks vishwa mitra atah savarna dirgha sandhi nasti it's not an example of savarna dirgha sandhi so uttama prashna So the rule is mitrasya charshav. If those are interested in the rules, the rule is mitrasya charshav. You can search in Ashtadhyayi. There is a rule. Mitrasya charshav. So astu. So let us see some examples of friend Santhi. Api plus ayati. Atra, yeah. Ikara hasti. Then api plus ayati kim bhavati yes Indraji, yeah. Swaramji, Samyak, Kalyanakrishnanji, Ravishankarji, yes. So, api plus ayati, apyayati. This yakara replaces the previous letter. It's not replacing both. Here replaces only E. Akara asti, you can see ayati. This E is replaced with yak. So, apyayati. Adi ante. Yes, adyante. Samyak. Just a minute. So, adi plus ante, adyante. Api eteshu. Yes. So, Kalyanakrishnanji, yes. Indraji, Shivaramji, yes. Girijaji. So, api plus eteshu. Apyeteshu. Atra api ikara asti, ikarat param, ekaraha vartate, ataha u replaces e. Apyeteshu. Prati uvacha. Yes, Shivaramji, yes. Hare Krishnaji, yeah. Raghuramji, what is this? Jeev, can't read. Yeah. Indiraji, yes. Yeah, Pramilaji. So, prati plus uvacha, pratyuvacha. Sadhu plus idam. Yes, Ravishankarji, Samyak. Yeah, Raghuramji, yes. Yeah, Pramilaji, yes. Anubhavaji, yeah. So, sadhu plus idam, sadhvidam, sadhvidam. So, ukara, v replaces u, so sadhvidam. Then, kalu aham. Yes, Indiraji, yeah, Kalyanakrishnanji. Yes, Parvathanathanji, yes, Vaishankaraji, yeah, Savitaji. So, Kalu plus Aham becomes Kalvaham. Anu plus Eshanam. Yes, Anubhavji, yes. Yeah, Savitaji, yeah. So, Girijaji, yes. So, Anu plus Eshanam, Anveshanam. Pachatu plus Odanam. Yes, Indiraji. Samyak. Yes, Shivaramji. Yeah, Govindarajanji, yes. Okay. Yeah, Kalyanakrishnanji. So, pacha tu plus o. So, v replaces u. Ataha kim bhavati? Pacha tvodanam. Not pacha tvodanam. It is pacha tvodanam. Pakaraha. Pacha tvodanam. Then, matru anumatihi. Rikarasti. Matru plus anumatihi. Yes, Indiraji. Yes. Rubatana Sanji, yes. Yes, Raghuramji, yes. See, atra, rkaraha, rkarat param, akarasti. Therefore, replaces rakara. Sorry, replaces rkara. Ataha, so, it is matranumati. It is not mataranumati. Some wrote matar. It is not matar. It is, but matru, matra. Because repaha rikarasya sthane, re replaces rikara. Ataha matranumati, akara hastyeva. Matranumati hi. Pitru amshaha. Yes, Indraji, yes. Yeah, Kalyana Krishnanji, yes. Hari Krishnanji, yeah. Yes, Shivaramji, yeah. Ravi Shankarji, yeah, Samyak. Yes. So, now, Rukarat Param Akarasti Repaha Rukarasya Sthane Bhavati Ataha Pitram Saha. Pitram Saha. Astu, Itam Yansanthehe Udaharanam. Itas Param Yantadeshaha, the last one, Yantadesha and Vantadesha. Atra, as I mentioned, padante yadyasti. Tarhi vikalpena lopaha api vartate. Yakarasya, vakarasya, vikalpena lopaha api asti. So, see, I wrote pa in bracket. It means this te is a pada and a in padanta. Therefore, if it is in padanta, then lopa is applicable optionally. Ekarasya, if ekara or vakara, they get lopa optionally. So therefore, two forms are possible in padanta. Raha rupadvayam vaktayam bhavati. You have to write two forms. Just write I and a. If it's difficult to type the whole word, you can just write whatever is there. If it is I, then write I and A, like that. Yes, Shivaramji, yeah. Parvata Nathanji, Samyak, yeah. Yes, Kalyana Krishnanji, yes. So, Atra, Te, Nama Ekaraha, Ekarat Param, A, Vartate, Ataha, Ekarasya Sthane, in the place of Ekara. Ayubhavati padante asti iti karanat vikalpena yakarasya lopaha ataha rupadvayam, therefore two forms are possible. Tayagataha, tai agataha, tayagataha, or if yakarasya lopaha bhavati tada to agataha, tayagataha to agataha. Mate plus a, since I have not written pa, it is not padanta. Padante nasti. Therefore, only one form is possible. Yes. Ravi Shankarji, Samyak. Yeah, Indiraji. Yes, Shivaramji. Yeah. Atra, see, ekara hasti, mate, and it's followed by a, punaha ekara eva hasti. Therefore, I replaces the previous a. Ekarasya sthane, purvasya ekarasya sthane, I iti adeshaha, and it is not padanta, because I have not written a pa here. It's not padanta. Padante nasti. Ataha ekameva rupam. Tasmat kim bhavati matayu and ye mataye. Okay. Ekarasya sthane ai. P पुनः अत्रापि एकारः अस्ति अतः मतये गुरो प्लस ए यस इंदिरा जी सम्यक् या कल्याण कृष्ण जी सम्यक् यस रविशंकर जी या गिरिजा जी या रघुराम जी सम्यक् तो पूर्ववदेव लाइक द प्रीवियस एग्जांपल अत्र ओकारः अस्ति ओकारात् परम् एकारः देयरफॉर औ रिप्लेसेस ओ अतः गुरौ देन ए गुरवे कृते प्लस अह इज आल्सो नॉट पदांत यस इंदिरा जी या कल्याण कृष्णन जी यस यस शिवराम जी यस रविशंकर जी सम्यक् अकारः अस्ति अन्ते सो अत्र कृते प्लस अह अतः किं भवति एकारस्य स्थाने ऐ कृतयः कृतयः एतौ प्लस आह्वय हियर इट इज पदांत औ पदांते अस्ति रूपद्वयं भवितुम् अर्हति यस तो रघुराम जी यस शंकर जी या कल्याणकृष्णन जी यस सो अत्र औकारः वर्तते औ देन अ अतः आव इति आदेशः आव रिप्लेसेस औ सो देन वकारस्य विकल्पेन लोपः ऑप्शनली वर्गस्य लोपः अतः एतावाह्वय आर एता आह्वय ओके एता आह्वय आर एता आह्वय वकारस्य लोपस्य एता आह्वय यदि लोपः नास्ति तर्हि एता आह्वय साधो प्लस ए किं भवति साधो प्लस ए यस कल्याण कृष्णन जी सम्यक् यस पद्मनाभन जी यस अनुभव जी या प्रमिला जी यस सो अत्र ओकारः ओकारात् परम् एकारः अस्ति एंड इट्स नॉट एट द एंड ऑफ पद अतः अत्र किं भवति औ साधवे देन तौ प्लस उभौ पदान्ते अस्ति यस कल्याण कृष्णन जी सम्यक् गिरिजा जी यस रविशंकर जी यस इंदिरा जी सो अगेन टू फॉर्म्स आर पॉसिबल तावुभौ आर ताउभौ तावुभौ आर ताउभौ देन तस्मै अस्तु पदान्ते अस्ति अगेन यस पद्मनाभन जी यस कल्याण कृष्णन जी यस यस शिवराम जी सम्यक् यस प्रवीणा जी यस सो तस्मै अस्तु अत्र ऐकारः अस्ति तस्य स्थाने आय् इति आदेशः देन् यकारस्य विकल्पेन लोपः अतः तस्मायस्तु आर् तस्मा अस्तु ये प्लस इह ये प्लस इह पदान्ते अस्ति अत्रापि यस रविशंकर जी सम्यक् यस कल्याणकृष्णन् जी सम्यक् यस पर्वतनाथन् जी यस प्रमिला जी सो अत्र ये एकार अस्ति देन इकार अतः ये इत्यस्य स्थाने ऐ इति आदेशः therefore it is ya iha or ya iha then go plus eshana yes saviraji samek indiraji yes girijaji yes yes gaveshana samyak samyak idam udaharana udaharanani atra smartavyam so granthesu if you read some sanskrit text if in padanta lopa sahitam udaharanam eva drishyate generally if there is a ye iha and you will find ya iha instead of they you don't use this form you generally won't find this form if there is yantadesha or vantadesha so in ancient texts and sutras you will find this form this lopa lopara sahitameva rupam drishyate ya iha naneva pashyati for example in katopanishad they used ya iha naneva pashyati there yaha yaha iha and so it will be little bit difficult so you have to carefully have to read because even yaha iha also becomes ya iha ye iha also becomes ya iha so atah atra seeing the context we have to decide whether it is yaha or ye because even if it is a then it becomes ya yaha it asti chedapi it becomes ya but ya yaha is ekavachana and ye is bahuvachana for seeing the context you have to decide whether it is ekavachana or bahuvachana but you will generally will find these forms tasma astu ta ubhau ta agatah etarsha rupanyeva bodhyah tatra granthesu upanishatsu athava anneshu arthashastram ityadi granthesu sarvatra etarsha rupanyeva drishyante mate plus a katham na padante pada yeah this is a question why this example mate plus a is not padanta etah see what is pada padam nama subantam padam which end sub ending subantam padam iti gachate atra a iti supratyayah a supratyayah atah sampurnam padam just mate is not pada in this example in this example a is supratyaya therefore this mate plus a the whole thing makes a pada the combination of these two makes a pada atah kevalam mate iti atra padamna in this example mate is not pada mate can be a pada in sambodhana but here it is not like that this is a different example asmin udaharane in this example mate iti padam nasti yes suptingantam padam samyak then pura roopa that is not in this chart padante yadi ekarah athava okara asti if ekara or okara in padanta and if it is followed by short hrasva akara tada pura roopa sandhir bhavati te atra kim bhavati this is not in this chart, so this is not useful. This chart is not useful, just kept the chart as it is. So to know the difference, so whenever A or O at the end of pada, and if it is followed by short akara, then Purvarupa Santhi. Yes, Sivaramji, Samyak. Yes, Indraji. Yeah. Raghuramji, yes. Yes, Pramilaji. So, te plus atra, te tra. Generally, you write avagraha to show there was akara. And ko plus api. Yes, copy. And there is a question, Guru Astu, why not it is a Visarga Sandhi? Because Guru is a Sambodhana. There is no Visarga in this example. Guru Shabdasya, Sambodhana Paktihi, He Guru Iti Rupam. Atahatra Visarga Nasteva, to do Visarga Sandhi, there is no Visarga. Therefore, it is not Visarga Sandhi, like this. But in Kopi, actually it is Kaha. There was a Visarga. So it can be called as Visarga Sandhi. Visarga is possible in this example. Kaha, api, or ko, kopi. But guru itatra visargaha nasteva. Atha visarga sandhirna. So avagraha is not due to visarga sandhi. So we can find avagraha even in visarga sandhi and even purulpa sandhi. So avagraha is possible in both the places. Just it is written to show there is akara, or some places to show there was akara. They write in some text they will find two visarga. Even where there is savarna dirgha sandhi, they write avagraha to show this is akara, not akara, to avoid confusion. This avagraha is written. It is not compulsory. Kopi and Mahesho Atra. Yes, Mahesho Atra. Samyak. Okay, sorry. Yeah. Ante plus Asti. Ante asti. Yeah. So there's a question again. When avagraha is present. So avagraha, so whenever Pururupa Sandhi occurs, we write avagraha to show there was akara. Even when Visarga Sandhi is done, after Visarga Sandhi, Pururupa Sandhi is possible. Like Kotra. In the second example, there's Visarga Sandhi and also Pururupa. But te atra, it is just Pururupa Sandhi. Kopi, here it is both Visarga Sandhi and Pururupa Sandhi. Mahesho atra is also, here also it is Visarga Sandhi and Pururupa Sandhi. So you will know more about Visarga Sandhi chapter. But whenever there is Pururupa Sandhi, we generally write avagraha. Yeah, ante asti samyak. Then parinamo ayam. Yes, samyak. So parinamo ayam. Astu shigram gachami agre. Bhojane avadat. Yes, Indraji, samyak. Yes, Shivaramji, yes. Yes, Girijaji. So, Bhojane Vadat. Yashase Arthaya.
Yes, Indira ji, yes, Paratanathan ji, yes. Yes, Sivaram ji. So it's a fair tire. Athot Ataha. Yes, Indira ji, Samek. Yeah, Paratanathan ji, yes. Yeah, Samek. So Athotaha. Lakshyate antargatam. Lakshyate antargatam. Yes, Indira ji, Samyak. Yes, Parvata Nathan ji, yes. So, lakshyate antargatam. Lakshyate antargatam. Matre arpitam. Yes, Indira ji, Samyak. Yeah. So there is a question, how do I determine that Pururupa is applicable? See, whenever there is Ekara or Okara at the end of Pada, all these are Padas. So how to decide a Pada? If it is difficult to decide Pada, then when you study Subanta, then you will get more clarity how to decide Pada. But at present, so if Ekara or Okara at the end of Pada, and if it is followed by Hraswa Akara, then Purarupa Santhi occurs. That is the rule. Ekarat, Okarat, Hraswa Akare, Pare, Purarupa Santhi. But that Ekara or Okara should be at the end of Pada, Padante Bhavet. How to decide Pada? That when we study Subanta, Tinanta, then we get more clarity. Whether it is Pada or Apada, so we will know later on. But the general rule is that, like that. Yeah, Matre, okay. So, there, Atra, Ketana Shloka Santi. You can see. And yatra maya bold kratam sarvatra sandhirasti. Wherever you can see bold letter, sarvatra sandhirasti. Kopi prayatnam kartam shaknoti. So mateva rakshati piteva hiteni yungte kanteva chaphi ramayat kyapaniya khedam kirtincha dikshu vitanoti tanoti lakshmim kim kim na sadhayati kalpalateva vidya. So the meaning I have written in the next slide. So those who want to know its meaning can see. This is the first one. It protects you like a mother. So that one is the meaning. So when the slide will be shared, you can see the meaning of these lokas. So now the presently Mateva Sandhirasti. Mateva Piteva. So first one, Mateva, so how to split this Sandhi, Mateva? Yes, yeah, Shivaramji, yeah, Kalyan Krishnanji, Samyak, yeah, Savitaji, yes, yes, Raghuramji, yeah. So Mateva, Piteva, Samanam, Mata, Iva, Mateva, and Plita plus Iva, Piteva, Kanta plus Iva, Kanteva, that is also Samanam. Next, Tamphiramayat Japaniya. How to split this? Tamphiramayat Japaniya. Yes. Yes. Indiraji, yes. Kalyan Krishnanji, yeah, yeah. Yeah, so Raghuramji, yes. Rama Priyaji. Yes, yes. See, yeah, Parvatana Sanji. Sammes. Cha. Cha. Iti. Zavyaya. Cha. Then. Abhi Ramayati. Cha. Then it's a cha plus a cha. Savarna Dirgha Sandhirasti. Therefore, if you split cha, then a. Abhi Ramayati. Then there is akara. T plus a. Atra yan sandhirasti. Ikarasya sthane. Ikarasya sthane yakaraha bhavat. So, ataha tya. Cha abhiramayati apaniya. Cha abhiramayatyapaniya. Okay? Cha plus abhiramayati. Cha abhiramayati. It is savarna dirgha. Then t plus a yan tya. Chaphiramayatyapaniya. Asto. I think you can split this now. Then kalpalateva, same as we did mateva, piteva, kanteva, kalpalateva. Kalpalata iva. Lata. Kalpalata iva, kalpalateva. Yes, samayak. Asto. So, samayaha bhavad. So in the next class we can solve this, we can see the santhi in other shlokas. Then we can study the rules related to these santhis. Ashtadhyayi rules, how to understand those rules, that we'll study in the next class. The agrima paathe pashyamah, samayah jata. Etesham abhyasam, there are many subhashitaha vartante. Tatra katam santhehe vibhagah ityapi agrima paathe pashyamah. Then ashtadhyayam yani santhi sutrani vartante tesham arthah kaha tesham avagamanam katham tadvishayepi agrima pathe vadishyami tasya astu tarhi samapayamah dhanyavadah. Yadi prashna santhi agrima pathe eva prichantu. So if you have questions, please ask, you can ask in the next question, next class, because now I think some of you raised hands, but since I have to go somewhere very urgently. If you have questions, please ask in the next class. I will answer those questions. Astu. Dhanyavadaha. Samapayami. Vakyakaram, Rurutim, Bhashyakaram, Patanjalim, Paninim, Sutrakarancha, Pranatosmi, Munitrayam.